एस रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। राष्ट्रपतिः रामचन्द्र पौडेलः कथयति प्रकृतेः संरक्षणम् मानवजातेः संयुक्ताभिरुचेः समाह्वयस्य च विषयो वर्तते। वन वातावरण मन्त्रालयेन न्यायाधीश समाजेन राष्ट्रिय प्रकृति संरक्षण कोषेण च संयुक्त रूपेण ह्य आयोजितम् वन्यजन्तु संरक्षण वातावरणीय न्याय विषयकम् सम्मेलनम् सम्बोधयन् राष्ट्रपतिः पौडेलः प्रकृतेः संरक्षणाय समेषाम् सहभागिता आवश्यकी अस्तीति प्रावोचत्। राष्ट्रपतिः पौडेलः अवासत देशस्य विकासेन सह प्रकृतिः जैविक विविधता वन्यजन्तु संरक्षणं च प्रत्यक्षं संयोजिताः विषयाः वर्तन्ते। कार्यक्रमे प्रधान न्यायाधीशः विश्वम्भर प्रसाद श्रेष्ठः अगदत् विकास वातावरणयोः सन्तोलनं संस्थाप्य सबल विकासस्य लक्ष्यम् अधिगमनीयम्। प्रधान न्यायाधीशः श्रेष्ठ विकास निर्माणेन सहैव वातावरणीय सन्तोलनं संस्थाप्य प्राकृतिक धरोहराणाम् संरक्षणम् अपरिहार्यम् वर्तते। तदवसरे वन वातावरण मन्त्री डा वीरेन्द्र प्रसाद महतो वन्यजन्तूनाम् मानवानाम् च मध्ये स्थितम् द्वन्द्वम् साम्प्रतिकी समस्यास्तीति चर्चयन् वन्यजन्तूनाम् संरक्षणाय वातावरणस्य परिवर्तनस्य विषय मुख्य समाह्वयोस्तीति प्रावोचत्। कार्यक्रमे महान्यायाधिवक्ता डा दीनमणि पोखरेलः न्यायाधीश समाजस्य महासचिव विशेष न्यायालयस्य अध्यक्षश्च न्यायाधीशः टेकनारायण कुंवर च विचारम् व्यक्तवन्तौ। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति नेपाली गीत संगीतयो क्षेत्रे दृष्टं बाह्यम् अतिक्रमणं विकृतिं च प्रति सावधानैर्भाव्यम्। राष्ट्रिय लोक दोहरी गीत प्रतिष्ठान नेपालेन ह्य आयोजिताम् सार्वजनिक लोक दोहरी गीत प्रतियोगिताम् उद्घाटयन् प्रधानमन्त्री प्रचण्डः नेपाली संगीत क्षेत्रम् विकृतिम् प्रति लालायितम् जायमानम् अस्तीति विषये सावधानैर्भाव्यमिति उदैरयत्। विविधतापूर्ण मौलिकतायाम् आधृतेन गीत संगीतेन समुचित रूपेण प्रगतिः विहिता सत्यपि पश्चात्तन समये प्रचारस्य दर्शकानाम् वर्धापनस्य च लालसया ख्यातिप्राप्त राष्ट्रिय कलाकारश्चापि सांस्कृतिक विकृतिम् प्रति अग्रेसराः दृष्टाः सन्तीत्यतः तत्र कलाकर्मिभिः सावधानैर्भाव्यमिति प्रावोचत्। प्रधानमन्त्री प्रचण्डः स्वस्य आधिक्येन प्रचारः लोकप्रिय जनप्रिय भवननम् च पृथक् विषय स्तः इति समस्पष्टयत्। सभामुख देवराज घिमिरे भाषिक दक्षताया सहैव सृजनशीलताया व्यावसायिक दक्षतायाश्च अभिवृद्धये बलं ददाति। नेल्टा इत्याख्येन नेपालाङ्ग्ल भाषा शिक्षक संघेन आयोजितम् अष्टाविंशतितमम् अन्तर्राष्ट्रिय सम्मेलनम् संघस्य वार्षिकीम् साधारण सभाम् च उद्घाटयन् सभामुख घिमिरे विषय विज्ञानाम् वृत्तिगताम् व्यावसायिकीम् दक्षताम् च अभिवर्ध्य शैक्षिकम् रूपान्तरणम् विधेयम् इति अवोचत्। सभामुख घिमिरे नेल्टा संघस्य सहयोगेन आंग्लभाषायाः शिक्षकाणाम् ज्ञानस्य शिल्पस्य अनुभवस्य च आदान प्रदानार्थम् सञ्चाल्यमानाभिः प्रशिक्षण कार्यशालाभिः सम्मेलनैश्च सम्बद्ध क्षेत्रस्य विकासाय योगदानं प्राप्स्यतीति विश्वासम् अभिव्यनक। राष्ट्रिय सभायाः अध्यक्षः गणेश प्रसाद तिमल सिन्हा भासते मानवतावादी रेडक्रस सदृश्याम् संस्थायाम् राजनीतेः प्रवेशनेन सेवाग्राहीभिः सुशासनम् प्राप्तुम् न शक्यते। नेपाल रेडक्रस सोसाइटी संस्थायाः कास्की शाखायाः चत्वारिंशीम् साधारण सभाम् ह्य पोखरायाम् सम्बोधयन् अध्यक्ष तिमल सिन्हा एवं विधासु संस्थासु राजनीतिक हस्तक्षेपस्य विषयः उचितो नास्तीति अब्रवीत्। अर्थमन्त्री डा प्रकाश शरण महत भासते आर्थिक रूपान्तरणस्य मुख्याधारः कृषि वर्तते। बीपी चिन्तन प्रतिष्ठानेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे अर्थमन्त्री डा महत आधुनिक प्रविधेः अनुसारेण व्यावसायिक रूपेण व्यावसायिकम् कृषिकार्यम् विधातुम् भौगोलिकतायाम् आधृताम् कृषियोग्याम् भूमिम् परिचित्य कृषिक्षेत्रस्य औचित्यस्य पुष्टेः भवनम् च आवश्यकम् अस्तीति अवोचत्। कार्यक्रमे कृषि मूल्य श्रृंखला विज्ञ डाक्टर बद्री वस्ता कोटी कृषि प्रणाली फलदायिनी विधातुम त्रयाणाम व्यवस्थाणाम सर्वकारैः कृषेः आयव्ययस्य नीतिगत सुनिश्चितातायाः आवश्यकताम् प्रादर्शयत्। नेकपा एमाले दलस्य वरिष्ठ उपाध्यक्ष ईश्वर पोखरेलः ब्रूते दलस्य अतः परम कार्यम राजनीतिक स्थायित्वम वर्तते। ललितपुरस्य च्यासलवर्तिनी नेकपा एमाले दलीय कार्यालये ह एमाले दलीय वृत्तिगत विशेष जनपद समितेः नवमम् अधिवेशनम् उद्घाटयन् असौ राष्ट्रिय राजनीतिकम् परिवर्तनम् सम्भूतम् सदपि राजनीतिकम् स्थायित्वम् संस्थापयितुम् शक्तम् नास्तीति चर्चयन् दलस्य अतः परम् कार्यम् राजनीतिक स्थायित्वेन सह सर्वविदार्थिका विकासः समृद्धिश्च अस्तीति अगदत्। नेकपा माओवादी केन्द्रस्य उपमहासचिव वर्षमान पुन्निगदति वर्तमान सर्वकारेण जनता याम आशा संचरणस्य कार्यम विहितम वर्तते। पोखरायाम ह प्रेस सेन्टर नेपालेन आयोजिते पत्रकार सम्मेलने उपमहासचिव पुन सर्वकारस्य संगठनस्य अनन्तरम सुशासनाय प्रयत्नम विहितम अस्ति राज्यस्य सर्वाणि अंगानि सुशासनाय केन्द्रितानि सन्तीति च कारणेन जनतायाम आशायाः उत्साहस्य च संचारः संजातोऽस्तीति अवोचत। नेता पुन अगदत आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमाणाम आयव्ययस्य च निर्माणात् पूर्वं समाजस्य सर्वेषु स्तरेषु समूहेषु च विमृश्य प्राथमिकता निर्धार्यते। राष्ट्रिय गौरवस्य रणनीतिक महत्वस्य च काष्ठमण्डप तराई मधेस द्रुत मार्ग निर्माणस्य कार्यम् प्रतिशतम् आसन्नैकत्रिंशता सम्पन्नमस्ति। वर्तमान आर्थिक वर्षस्य माघमासान्तम् यावत् आयोजनायाः प्रतिशतम् 96.3% भौतिक प्रगतिः 75.75% अंकैः वित्तीय प्रगतिश्च सम्पन्ने स्तः। क्षतिपूर्ति वितरणस्य भूमेः अधिग्रहणस्य च अवशिष्ट कार्येण खोकना क्षेत्रेण न्यायालय विचाराधीनानुबन्धन प्रक्रियया च विना कार्यस्य प्रगतिः सन्तोषजनिका स्थिति नेपाली सेनायाः प्राविधिक सहायक रथी आयोजनायाः प्रमुखश्च विकास पोखरेलः अज्ञापयत्। रौतड जनपद प्रशासन कार्यालयेन ईशानाथ नगरपालिका क्षेत्रे निषेधाज्ञा क्रियान्विता अस्ति। नगरपालिकायाः अभ्यन्तरे ह्य सायं पञ्चवादनात् अनिश्चितकालिकी निषेधाज्ञा क्रियान्विता अस्तीति जनपद प्रशासन कार्यालयेन ज्ञापितं वर्तते। गत बृहस्पतिवासरे ईशानाथ नगरपालिकायाः षष्ठ सप्तम वडा क्षेत्रयोः सरस्वत्याः मूर्तेः विसर्जनस्य क्रमे मोतीपुरस्थाने द्वयोः पक्षयोः जातेन विवादेन संघर्ष शनिश्चरवासरे घिउरास्थानेऽपि पुनः संघर्षः उत्पन्नः इत्यतः शान्ति सुरक्षां संस्थापयितुं निषेधाज्ञा क्रियान्विता स्थिति आदेशे उल्लिखितं वर्तते। नेपालगंज स्थानात् जनकपुर स्थानाय विमानोड्डयन सेवा प्रारब्धास्ति। धार्मिक पर्यटनस्य प्रवर्धनाय प्रथमवारं ह्यस्तनात् दिवसात् नेपालगंज स्थानात् जनकपुर स्थानाय विमानोड्डयन सेवा प्रारब्धा वर्तते। इति समाचारः।